वाजोजेते सहस्रिणो रथा सस्ते भिरागहि निजत्वान् स्वमपीतजे निजत्वान् वाजपागह्यजम् शुक्रो अजामिते गन्ता असि सुन्वतो गृहम् शुक्रस्याद्यगवा शिर इन्द्रवाजो निजुत्वतः आजातम् विपतन्नरा अजम् वा मित्रावरुणा सुतः सोमरता वृधा ममे दिहश्रुतम् भवम् राजा नावनभिद्रुहात् ध्रुवे सदस्योत्तमे सहस्रस्थूण आसाते तासम् राजा घृतासुते आदित्यादानुनस्पते सचेते अनवह्वरम् गोमदूषुना सत्याश्वा वद्यादमश्विना वर्ते रुद्रा नृपाय्यम् न यत्परो नान्तर आदधर्षद्वृषण्वसो दुःशंसामर्त्यो रिपोः तान आवोल्हमश्विना रजिम् विषङ्गसन्दृशम् धिष्ण्यावरिवोविदम् इन्द्रो अङ्गमहद्भयमभीषदपजुज्जवत् स हि स्थिरो वितर्षणिः इन्द्रश्च मृळयाति नो ननः पश्चादघन्नशत भद्रम् भवाति नः पुरः इन्द्र आशाभ्यस्परि सर्वाभ्यो अभयम् करत जेता शत्रोन्वितर्षणिः विश्वे देवास आगतशृणुताम इमम् भवम् एदम् बर्हिर्निषेदत तीव्रो वो मधुमाम् अजम् शुनहोत्रेषु मत्सरः एतम् बिबत काम्यम् इन्द्रज्येष्ठामरुद्गणा देवासः पूषरातजः विश्वे मम श्रुता हवम् अम्बितमे नदी एतमे देवितमे सरस्वते अप्रशस्ता इव स्मसि प्रशस्तिमम् वनस्कृधे त्वे विश्वा सरस्वति श्रितायोंषि देव्याम् शुनहोत्रेषु मत्स्व प्रजान्ते विदिदिड्ढिनः इमा ब्रह्म सरस्वति जुषस्व वाजिनीमते या ते मन्मगृत्समदारतावरिप्रजा देवेषु जुह्वते प्रेता यज्ञस्य शम्भवा युवामिदा वृणीमहे अग्निम् च हव्यवाहनम् यावा नः पृथिवी इमम् सिद्ध्रमद्यदि विस्पृशम् यज्ञम् देवेषु यच्छताम् आवामुपस्थमद्रुहा देवास्येदन्तु यज्ञजाः इहाद्य सोमपीतये